गणानां त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन्नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाजिनीवती धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमण्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुद्यामुतते नमः यातयुषु शिवतमा शिवं बभूवते धनुः शिवाशरव्यायातवतया नो रुद्रमृणया याते रुद्र शिवा तनोरघोर पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकशीः यामिषुम् गिरिशन्तहस्ते बिभर्षस्तवे शिवाम् गिरित्रताम् कुरुमाहिगुम् श्रीः पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत् अद्य वोच दधि वक्ता प्रथमो दैव्योऽभिषक् अहीगुश्च सर्वाञ्जम्भय सर्वाश्च यातु धान्यः असो यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः हे चेमागुम् रुद्र अभितो दिक्षुश्रिता सहस्रशो वैशागुम् हेड इमहे असव्यो वसर्पति नीलग्रेवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वाभूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे अधो ये अस्य सत्त्वानोऽहम् देभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरार्णियोर्जा याश्च ते हस्त इषवः पराता भगवोऽपा अवतत्य धनुस्वगुम् सहस्राक्षशते शुधे निशीर्य शल्यानामुखा शिवो न सुमना भव विज्जन्दनुः कपर्तिनो विशल्यो बाणवागुम् उत अनेशन्नस्येशव आभुरस्य निषङ्गतिः याते हेतिर्मीढुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानादताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मा प्रणत्तु विश्वतः अधो यशुधिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय काला निरुद्राय नीलकण्ठाय मृत्युम् जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः నమో హిరణ్యవాహవేసేనాన్ని దిశాం చ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్య పశూనాం పతయే నమో నమః సస్పింజరాయ త్విషీమతే పథీనాం పతయే నమో నమో బభ్లుషాయ వివ్యాధినేంద్రానాం పతయే నమో నమో హరికేశాయోపవీతినే పుష్టానాం పతయే నమో నమో భవస్య హేత్యే జగతాం పతయే నమో నమో రుద్రాయ దతావిని క్షేత్రాణాం పతయే నమో నమః సూతాయ హంత్యాయ వనానాం పతయే నమో నమో రోహితాయ స్థపతయే వృక్షాణాం పతయే నమో నమో మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో భువంతయే వారివస్కృతాయౌషధీనాం పతయే నమో నమ ఉచ్చైర్ఘోషాయ క్రందయతే పత్తీనాం పతయే నమో నమ కృష్ణవీతాయ ధావతే సత్వనాం పతయే నమః నమస్సహమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమ కగుబాయ నిషంగిణే స్తేనానాం పతయే నమో నమో నిషంగిణ ఇషు ధీమతే తస్కరాణాం పతయే నమో నమో వంచతే పరివంచతే స్థాయూనాం పతయే నమో నమో నిచేదవే పరిచరాయారణ్యానాం పతయే నమో నమ శృకావిభ్యో జిగాగుం సద్భ్యోముష్ణతాం పతయే నమో నమో కిమద్భ్యో రక్తం చరభ్య ప్రకృంతానాం పతయే నమో నమ ఉష్ణీషిణే గిరిచరాయ కులుంచానాం పతయే నమో నమ ఇషుమద్భ్యోధన్ పావిభ్యశ్చ వో నమో నమ ఆదన్వానేభ్య ప్రతిదధానేభ్యశ్చ వో నమో నమ ఆయచ్చభ్యో విసృజభ్యశ్చ వో నమో నమోస్యభ్యో విద్యభ్యశ్చ వో నమో నమ ఆసీనేభ్యశయానేభ్యశ్చ వో నమో నమ స్వపద్భ్యో జాగ్రద్భ్యశ్చ వో నమో నమస్తిష్టద్భ్యో ధావద్భ్యశ్చ వో నమో నమ సభాభ్యః సభాపతిభ్యశ్చ వో నమో నమో అశ్వేభ్యోశ్వపతిభ్యశ్చ వో నమః నమ ఆవ్యాధినీభ్యో వివిధ్యంతేభ్యశ్చ వో నమో నమ ఉగణాభ్యస్త్రగం హతేభ్యశ్చ వో నమో నమో గృత్సేభ్యో గృత్సపతిభ్యశ్చ వో నమో నమో భ్రాతేభ్యో భ్రాతపతిభ్యశ్చ వో నమో నమో గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో మహద్భ్యః క్షుల్లకేభ్యశ్చ వో నమో నమో రథిభ్యో రథేభ్యశ్చ వో నమో నమో రథేభ్యో రథపతిభ్యశ్చ వో నమో నమ సేనాభ్యః సేనానిభ్యశ్చ వో నమో నమః శత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమ సఖ్యభ్యో రథకారేభ్యశ్చ వో నమో నమ కులారేభ్య కర్మారేభ్యశ్చ వో నమో నమ पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यश्वनिभ्यश्च वो नमो नमश्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः सर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपद्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतदन्वने च नमो गिरिशाय च शिपिविष्ठाय च नमो मीदुष्टमाय जेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्धने च नमो अग्रिणाय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शीभ्याय च नमः ओर्व्याय चावस्वन्याय च नमः श्रोतस्याय च द्वेभ्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जगन्याय च बुद्निजाय च नमः सोऽभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय च वतान्याय च नमो अन्याय च कक्षाय च नमः शवाय च प्रतिश्रवाय च नमः आशुषेनाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरोधिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च अनन्याय च नमो दुष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेषुधिमते च नमः तीक्ष्णे च वेचायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः सोऽद्याय च सदस्याय च नमो नाद्याय च वैषन्ताय च नमः कोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः इन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः साम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो अन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तेत्याय च कोल्याय च नमः वाद्याय च वाद्याय च नमः प्रतरणाय चोत्तरणाय च नमः आताद्याय च लाद्याय च नमः शस्प्याय च फेन्द्याय च नमः ಸಿಕತ್ಯಾಯ ಚ ಪ್ರವಾಹ್ಯಾಯ ಚ ನಮ ಇರಿಂಗ್ಯಾಯ ಚ ಪ್ರಪತ್ಯಾಯ ಚ ನಮ ಕಿಗಂ ಶಿರಾಯ ಚ ಶಯನಾಯ ಚ ನಮ ಕಪರ್ದಿನೇ ಚ ಪುಲಸ್ತಯೇ ಚ ನಮೋ ಗೋಷ್ಟ್ಯಾಯ ಚ ಗೃಹ್ಯಾಯ ಚ ನಮಸ್ತಲ್ಪ್ಯಾಯ ಚ ಗೇಹ್ಯಾಯ ಚ ನಮ ಕಾಟ್ಯಾಯ ಚ ಗವರಿಷ್ಠಾಯ ಚ ನಮೋ ಹೃದಯಾಯ ಚ ನಿವೇಶ್ಯಾಯ ಚ ನಮ ಪಾಗುಂ ಸವ್ಯಾಯ ಚ ರಜಸ್ಯಾಯ ಚ ನಮ ಶುಷ್ಕ್ಯಾಯ ಚ ಹರಿತ್ಯಾಯ ಚ ನಮೋ ಲೋಪ್ಯಾಯ ಚ ಲಪ್ಯಾಯ ಚ ನಮ ಓನ್ಯಾಯ ಚ ಸೋನ್ಯಾಯ ಚ ನಮ ಪರ್ಣ್ಯಾಯ ಚ ಪರ್ಣಶದ್ಯಾಯ ಚ ನಮ ಪಗುರಮಾಣಾಯ ಚ ವಿಘ್ನತೇ ಚ ನಮ ಆಖಿಲತೇ ಚ ಪ್ರಖಿದತೇ ಚ ನಮೋ ವಕ್ಕಿರಿಟೇಭ್ಯೋ ದೇವಾನಾಗಂ ಹೃದಯೇಭ್ಯೋ ನಮೋ ವಿಕ್ಷೇಣಕೇಭ್ಯೋ ನಮೋ ವಿಚಿನ್ವತ್ಕೇಭ್ಯೋ ನಮ ಆನಿರ್ಹತೇಭ್ಯೋ ನಮ ಆಮೀವತ್ಕೇಭ್ಯಃ ದ್ರಾಭೇ ಅಂಧಸಸ್ಪತಿ ದರಿದ್ರಂ ನೀಲಲೋಹಿತಾ ಯೇಷಾಂ ಪುರುಷಾಣಾಂ ಯೇಷಾಂ ಪಶೂನಾಂ ಮಾ ಭೇರ್ಮಾ ರೋಮೋ ಯೇಷಾಂ ಕಿಂಚನ ಮಮತ್ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತನೋ ಶಿವಾ ವಿಶ್ವಾಃ ಭೇಷಜೇ ಶಿವಾ ರುದ್ರಸ್ಯ ಭೇಷಜೇ ತಯಾ ನೋ ಮೃಣ ಜೀವಸೇ ಇಮಾಗುಂ ರುದ್ರಾಯ ತವಸೇ ಕಪರ್ದಿನೇ ಕ್ಷಯದ್ವೀರಾಯ ಪ್ರಭರಾಮಹೇ ಮತಿಂ ಯಥಾನಶ್ಯಮಸ ತ್ರಿಪದೇ ಚತುಷ್ಪದೇ ವಿಶ್ವಂ ಪುಷ್ಟಂ ಗ್ರಾಮೇ ಅಸ್ಮಿನ್ನನಾತುರಂ ಮೃಳಾನೋ ರುದ್ರೋತನೋ ಮಯಸ್ಕೃತೆ ಕ್ಷಯದ್ವೀರಾಯ ನಮಸಾ ವಿಧೇಮತೇ ಯಚ್ಚಂಚಯೋಶ್ಚ ಮನುರಾಯ ಜೇ ಪಿತಾ ದದಸ್ಯಾಮ ತವ ರುದ್ರ ಪ್ರಣೀತೋ ಮಾನೋ ಮಹಾಂತ ಮುತ ಮಾನೋ ಅರ್ಭಗಂ ಮಾನ ಉಕ್ಷಂತ ಮುತ ಮಾನ ಉಕ್ಷಿತಂ ಮಾನೋ ವದೇ ಪಿತರಂ ಮೋದ ಮಾತರಂ ಪ್ರಿಯಮಾನಸ್ತನುವೋ ರುದ್ರರೀರಿಷಃ ಮಾನಸ್ತೋಕೇತನಯೇ ಮಾನ ಆಯುಷಿ ಮಾನೋ ಗೋಷು ಮಾನೋ ಅಶ್ವೇಶುರೀರಿಷಃ ವೀರಾನ್ ಮಾನೋ ರುದ್ರಭಾಮಿತೋ ವಧೀರ್ ಭವಿಷ್ಮಂತೋ ನಮಸಾ ವಿಧೇಮತೇ ಆರಾತ್ಯೆ ಗೋಹ್ನ ಉತ ಪೂರುಷಗ್ನೆ ಕ್ಷಯದ್ವೀರಾಯ ಸುಂದಮಸ್ಮೀತೇ ಅಸ್ತು ರಕ್ಷಾಚನೋ ಅಧಿ ಚ ದೇವ ರೋಹ್ಯದಾಚನ ಶರ್ಮ ಯಚ್ಚ ವಿವರಃ ಸುಹಿಶ್ರುತಂ ಕರ್ತ ಸದಮ್ಯವಾನಂ ಮೃಗನ್ನ ಭೀಮಮುಪಹತ್ನ ಮುಗ್ರಂ ಮೃಡಾಚರಿತ್ರೇ ರುದ್ರಸ್ತವಾನೋ ಅನ್ಯಂತೇ ಅಸ್ಮನ್ನಿವ ಪಂತು ಸೇನಾ ಪರಿಣೋ ರುದ್ರಸ್ಯ ಹೇತುರ್ವೃಣತ್ವ ಪರಿತ್ವೇಷಸ್ಯ ದುರ್ಮತಿರಗಾಯೋ ಅವಸ್ಥಿ ರಾಮಗವಭ್ಯಸ್ತನುಶ್ವಮೀರ್ವ ಶೋಕಾಯ ತನಜಾಯ ಮೃಡಯ ಮೀಡುಷ್ಟಮ ಶಿವ ತಮ ಶಿವೋ ನ ಸುಮನಾಭವ ಪರಮೇ ವೃಕ್ಷ ಆಯುಧನ್ ನಿಧಾಯ ಕೃತ್ಯಂ ವಸಾನ ಆಚರಪಿ ನಾಗಂ ಬಿಭ್ರದಾಗಹಿ ವಿಕಿರಿಧ ವಿಲೋಹಿತ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವಃ ಯಾಸ್ತೆ ಸಹಸ್ರಗುಂ ಹೇತಯೋನ್ಯವಸ್ಮನ್ನಿವ ಪಂದುತಾ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರದಾ ಬಾಹುವೋಸ್ತವ ಹೇತಯಃ ತಾಸಾಮೀಶಾನೋ ಭಗವ ಪರಾಚೀನಾಮುಖಾಕೃತಿ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಶೋ ಯೇ ರುದ್ರ ಅಧಿಭೂಮ್ಯಾ ತೇಷಾಗುಂ ಸಹಸ್ರಯೋಜನೇ ಭದನ್ವಾನಿ ತನ್ಮಸೇ ಅಸ್ಮಿನ್ ಮಹತ್ಯರ್ಣವೇಂತರಿಕ್ಷೇ ಭವಾ ಅಧಿ नीलग्रीवाशितिकण्ठाः शर्वा अलः क्षमाचराः नीलग्रीवाशितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु तस्मिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासक्वपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पथाम् पथि रक्षय ऐलभृदायव्युदः ये तीर्थानि प्रचरन्ति शुकावन्तो निषङ्गिणः एतावन्तस्य भूयागुंसश्च दिशो रुद्रावितस्तिरे देशागुंसहस्रयोजने वदन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येन्दरिक्षे ये दिवि येषामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशो द्वास्तेभ्यो नमस्ते नो मृणयन्तु तेयम् द्विष्मो यस्य नो द्वे स्थितम् वोजम् वे दधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दना नृत्योर्मुक्षीयवामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधीषु यो रुद्रो विश्व भुवनादिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योर्मत्याय हन्तवे यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् गन्धिरसि रुद्रो वामि शान्तकः एनान्येनाप्याय स्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु ह्यस्तु शुश्रुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमोभिर्देवमसुरन्दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभे शजो जगुम् शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ अग्नानिष्णो सजोषसे मा वर्धन्तु वाङ्गिरः युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुवश्च मे प्राणश्च मे अपानश्च मे व्यानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाच्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे सहश्च महायश्च मे जरा च मात्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे ज्येष्ठम् च माधिपत्यम् च मे भङ्गश्च मे भावश्च मे मश्च मेऽम्भश्च मे जेमा च मे महिमा च मे भरिमा च मे प्रतिमा च मे वस्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदस्य मे जातं च मे जनिष्यमानं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुगं च मे सुपथं च मरुद्धं च मरुद्धिश्च मे क्लृप्तं च मे क्लृप्तिश्च मे मतिश्च मे सुमतिश्च मे शयं च मे मयश्च मे प्रियं च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञातं च मे सोऽश्च मे प्रसोऽश्च मे स्थिरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयश्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सोषा च मे सुदिनं च मे ओर्च मे सुकृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सद्दिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जयत्रं च म औद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कोयवाश्च मे नं च मे क्षुच्च मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे शिखराश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च म आपश्च मे वीरुधश्च म ओषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्तां वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे उषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मे अन्तरिक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे అగుంసుశ్చ మే రశ్మిశ్చ మే దాభ్యశ్చ మే ధిపతిశ్చ మా ఉపాగుంసుశ్చ మే అంతర్యామశ్చ మా ఐంద్రవాయవశ్చ మే మైత్రావరుణశ్చ మా ఆశ్వినశ్చ మే ప్రతి ప్రస్థానశ్చ మే శుక్రశ్చ మే మంత్రే చ మాగ్రయణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుత్ గ్రహాశ్చ మేతి గ్రాహ్యాశ్చ మా ఐంద్రాగ్నశ్చ మే వైశ్వదేవశ్చ మే మరుత్వతీయాశ్చ మే మాహేంద్రశ్చ మహాదిత్యశ్చ మే సావిత్రశ్చ మే సారస్వతశ్చ మే పౌష్ణశ్చ మే పాత్రీవతశ్చ మే హార్యోజనశ్చ మే ఇద్మశ్చ మే బర్హిశ్చ మే వేదిశ్చ మే ధిష్ఠియాశ్చ మే శృచశ్చ మే చమసాశ్చ మే ద్రావాణశ్చ మే స్వరవశ్చ మ ఉపరవాశ్చ మే ధృషవణే చ మే ద్రోణకలశశ్చ మే వాయవ్యాని చ మే పూతభృచ్చ మ ఆధవనీయశ్చ మ ఆగ్నేయేర్ధం చ మే హవిర్ధానం చ మే గృహాశ్చ మే సదశ్చ మే పురోణాశాశ్చ మే పచతాశ్చ మే వభృదశ్చ మే స్వగాకారశ్చ మే అగ్నిశ్చ మే ఘర్మశ్చ మేర్కశ్చ మే సూర్యశ్చ మే ప్రాణశ్చ మే శ్వమేధశ్చ మే పృథివీ చ మే దితిశ్చ మే దితిశ్చ మే ద్యోశ్చ మే శక్వరేరంగులయోదిశశ్చ మే యజ్ఞేన కల్పంతామృత్య మే సామచ మే స్తోమశ్చ మే యజుశ్చ మే దీక్షా చ మే తపశ్చ మరుతుశ్చ మే వ్రతం చ మే హోరాత్రయోర్వృష్ట్యా బృహద్రదంతరే చ మే యజ్ఞేన కల్పేతామ్ గర్భాశ్చ మే వత్సాశ్చ మే త్రయవిశ్చ మే త్రయవే చ మే దిత్యవాక్చ మే దిత్యౌరే చ మే పంచావిశ్చ మే పంచావే చ మే త్రివత్సశ్చ మే త్రివత్సా చ మే తుర్యవాక్చ మే తుర్యౌరే చ మే పష్టవాక్చ మే పష్టౌహే చ మా ఉక్షా చ మే వశా చ మృషభశ్చ మే ఏహశ్చ మే నడ్వాంచ మే ధేనుశ్చ మాయుర్యజ్ఞేన కల్పతామ్ ప్రాణో యజ్ఞేన కల్పతామ్ పానో యజ్ఞేన కల్పతామ్ వ్యానో యజ్ఞేన కల్పతాం చక్షుర్యజ్ఞేన కల్పతా శ్రోత్రం యజ్ఞేన కల్పతాం మనో యజ్ఞేన కల్పతాం వాగ్యజ్ఞేన కల్పతాం ఆత్మా యజ్ఞేన కల్పతాం యజ్ఞో యజ్ఞేన కల్పతాం ఏకా చ మే తిస్రశ్చ మే పంచ చ మే సప్త చ మే నవ చ మ ఏకాదశ చ మే త్రయోదశ చ మే పంచదశ చ మే సప్తదశ చ మే నవదశ చ మ ఏకవిగుంశతిశ్చ మే త్రయోవిగుంశతిశ్చ మే పంచవిగుంశతిశ్చ మే సప్తవిగుంశతిశ్చ మే నవవిగుంశతిశ్చ ఏకత్రిగుంశచ్చ మే త్రయస్త్రిగుంశచ్చ మే చతస్రశ్చ మేష్టౌ చ మే ద్వాదశ చ మే షోడశ చ మే విగుంశతిశ్చ మే చతుర్విగుంశతిశ్చ మేష్టావిగుంశతిశ్చ మే ద్వాత్రిగుంశచ్చ మే షట్త్రిగుంశచ్చ మే చత్వారిగుంశచ్చ మే चतुश्चत्वारि गुं षट्चमेष्टा चत्वारि गुं षट्चमे वाजश्च प्रसवश्चाभिजश्च क्रतुश्च सुवश्च मूर्धा च यस्निश्चान्त्यायनश्च त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इदागे बहुर्मनुर्यज्ञनिर्बृहस्पतिरुत्थामदानिशगुंसिषद्विश्वे देवासु उक्तवाच पृथिवीमातत् मामाहि गुंसीर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यातगुम् शुश्रूषेण्या मनुष्येभ्यस्तम् मा देवा अवन्तु शोभाय पितरो नु मदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्न अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येषा नः यदन्नेनातिरोहति एतावानस्य महिमा अतो ज्यायागुश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्ध्व उदैत्पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वम् व्यक्रामत साशनानशने अभे तस्माद्विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीदार्जम् ग्रीष्म इद्म शरद्धभिः सप्तास्यासन् परिधयः त्रिसप्तसमिध कृताः देवा यद्यज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्ता साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वहुतः संभृतम् पृषदार्जम् पशोगुस्तागुश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः रजस्सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त ये केचो भयादतः गावोः जग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यदधुः कतिधाव्यकल्पयन् मुखं किमस्य कौ बाहो काहूरोपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यः कृतः ऊरु तदस्य यद्वैश्यः त्वद्भ्यागुं शूद्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसेदन्तरिक्षम् शेष्णोद्यौ समवर्तताम् पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन्त्यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशस्य तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्भ्यः सम्भूत पृथिव्यैरसा च विश्वकर्मणः समवर्तताधे तस्य त्वष्टा विदधद्रूपमेते तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवते नान्यः पन्था विद्यते जनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् परमिच्छन्ति वेधसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे हेष्यते लक्ष्मीश्च पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः पातु न इन्द्रक्षुमन्तम् चित्रम् रावन् सङ्ग्रभाय महाहस्ते दक्षिणेन विद्माहित्वा तु विकूर्मिम् तु विदेष्णम् तु विमगम् तु विमात्रमवोभिः न हि त्वा शूरदेवानमत्ता सोदित्सन्तम् भीमम् नगाम् वारयन्ते एतोन्विन्द्रम् सवामेशानमस्वराजम् न राधसामर्थिषन्नः प्रस्तोषदुपगासि शक्ष्रवत्सामधीयमानम् अभिराधसा जुगुरत् आनो भरदक्षिणेनाभिसव्येन प्रमृषा इन्द्रमानो वसो निर्भाक् उपक्रमस्वाभरदृशता दुष्णो जनानाम् अदासोश्चरस्य वेदः इन्द्रय उनुते अस्ति वाजो विप्रेभिः सनित्वः अस्माभिः सुतम् धनु हि सद्योजुवस्ते वाजा अस्मभ्यम् विश्वश्चन्द्राः वशैश्च भक्षो जयन्ते गणानाम् त्वा गणपतिम् हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पदानः शृण्वन् नोतिभिः सेदसाधनम् निषुषेद गणपते गणेषु त्वा वा उर्विप्रथमम् कवीना नरुते त्वक्रियते किञ्च नारे महामग्गम् भगवन् चित्रवच्च अभिज्ञानो मघवन्नादमानात्सखे बोधि वसुपते सखीनाम् रणम् कृदिरणकृत्सत्यसुष्मा भक्ते चिदाभज राये अस्मान् शान्ति शान्ति शान्तिः ॐ देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्याम् अश्विनोर्भैषज्येन तेजसे ब्रह्मवर्चसा याभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्याम् सरस्वत्यै भैषज्येन वीर्यायानाद्यायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्याम् इन्द्रस्येन्द्रियेण श्रेयशसे बलायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे श्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्यागुम् सरस्वत्यै वाजो यन्तुर्यन्त्रेणाग्ने स्व साम्राज्येनाभिषिञ्चामि इन्द्रस्य त्वा साम्राज्येनाभिषिञ्चामि बृहस्पते स्त्वा साम्राज्येनाभिषिञ्चामि आयुराशास्ते सुप्रजास्त्वमाशास्ते सजातवनश्यामाशास्ते उत्तरान् देव यज्यामाशास्ते भूयो हरिष्करणमाशास्ते दिव्यम् धामाशास्ते विश्वम् प्रियमाशास्ते यदनेन हरिशास्ते तदस्यात् तदुद्यात् తదస్మై దేవారాసంతాం ద్రుపదాదివేణముముచానః శిన్నస్నాద్వీమలాదివ పూతం పవిత్రేణేవాజ్యం పాపశుంధంతు మైనసః భూర్భువస్సు వోర్భూర్భువస్సు వోర్భూర్భువస్సు వః ఓం శాంతి శాంతి శాంతిః ఓం పూర్ణమదః పూర్ణమిదం పూర్ణాత్ పూర్ణముదచ్యతే పూర్ణస్య పూర్ణమాదాయ పూర్ణమేవావశిష్యతే ఓం శాంతి శాంతి శాంతిః ఓం ఈశావాస్యమిదగుం సర్వం యత్కించ జగత్యాం జగత్ తేన త్యక్తేన భుంజే ధామాగృహత్కస్య సిద్ధనం కుర్వన్నేవేహ కర్మాణి జిజీవిషేచ్ఛతగుం సమాః ఏవం త్వయి నాన్యథేతోస్తి న కర్మ లిప్యతే నరే అసుర్యానామతే లోకా అంధేన తమసావృతాః తాగుస్తే ప్రేత్యా విగచ్చంతి ఏకే చాత్మహనో జనాః అనే జదేకం మనసో జవేయో నైనదేవాప్నువన్ పూర్వమర్షత్ తద్ధావతోన్యానగత్యేతి తిష్ఠత్తస్మిన్ నపోమా తరిష్వారధాతి తదేజతి తన్నేజతి తద్దూరే తద్వంతికే తదంతరస్య సర్వస్య తదు సర్వస్యాస్య బాహ్యతః యస్తు సర్వాణి భూతాన్యాత్మన్యేవానుపశ్యతి సర్వభూతేషు చాత్మానం తతో న విజుగుప్సతి యస్మిన్ సర్వాణి భూతాన్యాత్మైవాభూద్విజానతః తత్ర కో మోహః కశోక ఏకత్వమనుపశ్యతః సపర్యగా శుక్రమకాయమవ్రణమస్నాభిరగుం శుద్ధమపాపవిద్ధం కవిర్మనీషే పరిభూః స్వయంభూర్యాత్తత్యతోర్థాన్యదధాచాశ్వతేభ్య సమాభ్యః అంధం తమః ప్రవిశంతి యే విద్యాముపాసతే తతో భూయ ఇవ తే తమోయౌ విద్యాయా గుంగతాః అన్యదేవాహుర్విద్యయా అన్యదా హురవిద్యయా ఇతి శుశ్రుమధీరా నాన్యేనస్తద్విచ చక్షిరే విద్యాం చ విద్యాం చ యస్తద్వేదో భయగుంసః అవిద్యయా మృత్యుం తీర్త్వా విద్యయా మృతమశ్నుతే అంధం తమః ప్రవిశంతి యే సంభూతిముపాసతే తదో భూయ ఇవ తే తమోయౌ సంభూత్యాగుం రతాః అన్యదేవాహుః సంభవాదన్యదా పురసం భవాత్ ఇతి శుశ్రుమధీరా నాన్యేనస్తద్విత చక్షిరే సంభూతిం చ వినాశం చ యస్తద్వేదో భయగుంసః వినాశేన మృత్యుం తీర్త్వా సంభూత్యామృతమశ్నుతే हिरण्मयेन पात्रेण सत्यस्यापि हितं मुखम् तत्त्वं पोषन्नपावृण सत्यधर्माय दृष्टये पोषन्नेकर्षे यमसूर्य राजा प्रत्यप्यो हरश्मीन् समो हतेजो यत्ते रूपम् कल्याणतमम् तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि वायुरनिलममृतमथेदम् भस्माञ्चगुम् शरीरम् ॐ क्रतो स्मर कृतग् स्मर क्रतो स्मर कृतग् स्मर अग्नेन यसुपथा जाये अस्मान् विश्वानि देववयुनानि विद्वान् युयोद्यस्मज्जुहुरानमेनो भूयिष्ठाम् तेन्नम उक्तिम् विधेम ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ धारापुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशस्य तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्ता अयनाय विद्यते सहस्रशीर्षम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वम् नारायणम् देवमक्षरम् परमम् पदम् विश्वतः परमान्नित्यम् विश्वम् नारायणगुम् हरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवति पतिम् विश्वस्यात्मेश्वरगुम् शाश्वतगुम् शिवमच्युतम् नारायणम् महाज्ञेयम् विश्वात्मानम् परायणम् नारायण परो ज्योतिरात्मा नारायणः परः नारायण परम् ब्रह्मतत्त्वम् नारायणः परः नारायण परो ध्याता ध्यानम् नारायणः परः यच्च किञ्चिज्जगत्सर्वम् दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत्सर्वम् व्याप्य नारायणस्थितः अनन्तमव्ययम् कविगुम् समुद्रेऽन्तम् विश्वशम्भुवम् पद्मकोशप्रतिकाशगुम् हृदयम् चाप्यधोमुखम् अधो निष्ट्यावितस्यान्ते नाभ्यामुपरितिष्ठते ज्वालमालाकुलम् भाति विश्वस्यायतनम् महत् सन्ततगुम् शिलाभिस्तुलम् भत्याकोशसन्निभम् तस्यान्ते सुशिरगुम् सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः सोऽग्रभुग्विभजम् तिष्ठन्नाहारमजरः कविः तिर्यगूर्ध्वमधशायि रश्मयस्तस्य सन्तता सन्तापयति स्वम् देहमापादतलमस्तकः तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थितः नीलतो यदमध्यस्त्व निर्दुल्लेखेव भास्वरा नीवारशोकवत्त्वन्वि पीताभास्वत्यनुपमा तस्या शिखाया मध्ये परमात्मा व्यवस्थितः स ब्रह्म स शिवः स हरिसेन्द्र सोऽक्षरः परमस्वराट् ऋतगुम् सत्यम् परम् ब्रह्म पुरुषम् कृष्णपिङ्गलम् ऊर्ध्वरेतम् विरूपाक्षम् विश्वरूपाय वै नमो नमः నారాయణాయ విద్మహి వాసుదేవాయ ధీమహి తన్నో విష్ణు ప్రచోదయాత్. స్వస్తి ప్రజాభ్యః పరిపాలయంతాం న్యాయేన మార్గేణ మహీం మహేశాః. గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం సమస్తలోకాః సుఖినో భవంతు. సమస్తలోకాః సుఖినో భవంతు. సమస్తలోకాః సుఖినో భవంతు. శాంతి శాంతి శాంతి.